सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। एतावत् वयं न्यायशास्त्रे के पदार्थाः सन्ति इति तेषां विषये किञ्चित् परिचयं प्राप्तवन्तः। तत्र सप्तपदार्थेषु तत्र अन्तिमपदार्थः अस्ति, तत्र अभावः इति। अद्यतनविषये तत्र एषः पदार्थः एव भवति, तत्र अभावः कः इति। किन्तु तस्मात् प्राक् गतवर्गे तत्र वयं यान् विषयान् पठितवन्तः तान् आधाय तत्र आदौ तत्र शोभा भगिन्याः उपस्थापनं वर्तते। अतः शोभा भगिनी कृपया।
आं महोदय, प्रयत्नं करोमि। आं तत्र अस्तु, श्रीगुरुभ्यो नमः, नमः सर्वेभ्यः। अत्र अद्य समवायसाधनप्रकारः अपि च लाघवगौरवस्वरूपम् इति विषये, इत्यनयोः विषये किञ्चित् वदामि। प्रथमं समवायसाधनप्रकारः इति, समवायस्य साधनं कथं करणीयम् इति विषयः। प्रथमं समवायः नाम किम् इति किञ्चित् पुनःस्मरणं कुर्मः। तत्र समवायस्त्वेक एव इति अन्नम्भट्ट आचार्येण उक्तेन श्लोकेन समवायः तु एकः एव इति बोधितम् इति वयं जानीमः। वयं समवायः इति आदौ द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः इत्यस्मिन् श्लोके दृष्टवन्तः। इत्युक्ते तत्र द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति एते सप्तपदार्थाः द्रव्येषु वर्तन्ते, अपि च आधेयताभावेन वर्तन्ते यत्र द्रव्यम् इति अधिकरणं भवति इति। तत्र सामान्यः इति पदार्थः कुत्र कुत्र वर्तते इत्युक्ते द्रव्ये वर्तते, गुणे वर्तते, कर्मणि वर्तते, सामान्ये वर्तते, अपि च विशेषे अपि वर्तते। अधुना समवायसाधनप्रकारः इति, तत्र प्रथमं संयोगः इत्यस्य विवरणं दत्त्वा अनन्तरं समवायः इत्यस्य परिचयं कृतमस्ति अस्माकं ग्रन्थे। संयोगस्य कृते उदाहरणेन हस्तौ द्वौ स्वीकृतौ, एतौ हस्तौ सामान्यतया स्वस्थाने तिष्ठतः। यदि वयं नमस्कारं कर्तुम् इच्छामः तर्हि तत्र एका क्रिया भवति, द्वौ हस्तौ नमस्कारं कर्तुम् एकत्र आगच्छतः, अपि च तयोः संयोगः भवति। इत्युक्ते आदौ विविक्तौ स्तः, पृथक् पृथक् स्तः, इदानीं संयोगे भवतः। यदा नमस्कारस्य क्रिया सम्पूर्णं तदा पुनः पृथक् कर्तुं शक्नुमः। इदानीं घटस्य उत्पत्तिसमये एतादृशं संयोगः भवति वा इति पश्यामः। तत्र कपालद्वयं स्वीकृत्य तयोः संयोजनेन घटं निर्मितम् इति चिन्तयामः। एतत् घटम् अत्र स्थापितम् इति चिन्तयामः। अधुना अत्र स्थितस्य घटस्य कपालद्वयं घटं विहाय अन्यत्र भवितुं शक्नुतः वा? पृथक्करणं भवितुम् अर्हति तयोः न पृथक् तत्र पृथक्करणं न भवितुम् अर्हति तयोः। यदि भवति चेत् तत्र घटं न तिष्ठति, कपालाः घटस्य अवयवाः इत्युक्ते अंशाः इति कृत्वा। अग्रे तथा एव घटस्य रूपमपि, घटस्य नीलवर्णः इति चिन्तयामः, रूपं गुणः इति कृत्वा आश्रयं विना न स्थातुम् अर्हति। अतः घटम् एकत्र अपि च तस्य नीलवर्णरूपम् अन्यत्र इति न भवितुम् अर्हति कदापि। एवमेव सर्पः अपि च तस्य प्रसर्पणम् इत्युक्ते तस्य चलनक्रिया। सर्पम् इदानीं बिलस्य मुखे अस्ति, अपि च तस्य चलनक्रिया तस्मात् किञ्चित् अग्रे अपगतः इति न भवति। अन्यत् उदाहरणम् एवम् एव, एकः घटः कस्मिन्नपि जलाशये निमज्जतः अस्ति, किन्तु तस्य घटत्वं तु जलस्य उपरि एव तरति इति कदापि न पश्यामः। अतः तेषां सम्बन्धः संयोगः इति वक्तुं न शक्नुमः। यतः संयोगः नाम पूर्वम् अप्राप्तयोः विविक्तयोः प्राप्तिः, इत्युक्ते ये पूर्वं पृथक्तया स्थिताः आसन् अपि च संयोगानन्तरं ते पुनः विविक्ताः भवितुम् अर्हन्ति, तेषां संयोगः इति न उच्यते. तत्र अतः अस्माकम् उदाहरणेषु किमपि अन्यः सम्बन्धः स्वीकरणीयः, सः सम्बन्धः समवायः इति पदार्थम्, समवायः इति पदार्थं समवायः इति उच्यते. इदानीं चित्रसङ्ख्या 17 पश्यामः. तत्र प्रथमं द्रव्यं स्वीकृत्य द्रव्ये द्रव्यम् अस्ति, गुणः अस्ति, क्रिया अस्ति इति दर्शितं. तस्य अग्रे द्रव्यं गुणं कर्म इत्युक्ते क्रियां च स्वीकृत्य सामान्यम् इति सूचितम्, समानां धर्मः सामान्यम् इत्यस्मात् ते सर्वे द्रव्ये तिष्ठन्ति इति कृत्वा सामान्यम् इति. तस्य अग्रे नित्यद्रव्येषु तु विशेषः एव इति दर्शितं, यतोहि नित्यद्रव्याणां सामान्यं न भवति, अवयवाः न भवन्ति इति कृत्वा. तत्र परमाणुः इति दृष्टवन्तः, यः अन्तिमशकलः यस्य विभजनं न भवति इति, अतः तस्य अवयवाः अपि न भवन्ति. तथा एव आकाशः अपि, तेन परमाणवः आकाशादयः च नित्याः इति उच्यते. किन्तु तेषां भेदः कथं भवति इति तु ज्ञातुं शक्नुमः. तत्र विशेषः इति पदार्थं स्वीकृतं, तदेव तत्र भिन्नः विषयः अस्ति नित्यद्रव्येषु, तत् तत्र दर्शितं. तर्हि तस्य अग्रे घटादि अवयविनः अपि च कपालादि अवयवाः इति पश्यामः चित्रे. तत्र उपरि दत्तानि द्रव्यद्रव्याणां समवायसम्बन्धस्य कृते, इत्युक्ते यथा कपालानां विना घटं, तन्तूनां विना वस्त्रं न भवति, तत्र कपालाः तन्तवः च अवयवाः अपि च अधिकरणाः, तस्मात् कपालादयः अवयवाः इति. कपालादीनां विना घटादयः न भवन्ति इति कृत्वा घटादयः आधेयाः भवन्ति, येषु अवयवाः ते अवयविनः इति तत्र पदव्युत्पत्तिः, तस्मात् घटादयः अवयविनः इति भवति. अग्रे रूपादिगुणः द्रव्यं गुणवत् इति, तत्र उपरि दत्तानि द्रव्यगुणानां समवायसम्बन्धस्य कृते, यथा एका नीलवर्णस्य दूरवाणी अस्ति चेत् दूरवाणीं विना तस्य नीलवर्णः इति गुणः पृथक्तया न भवति, तस्मात् रूपादिगुणाः इति. अपि च यस्मिन् द्रव्ये रूपादिगुणाः सन्ति तत् द्रव्यं गुणवत् इति भवति. तत्र गुणवत् इति नपुंसकलिङ्गे अस्ति इति कृत्वा, नो चेत् गुणवान् गुणवती इति अपि भवति. तस्य अग्रे उत्क्षेपणादिक्रियाः इति, द्रव्यम् अपि च द्रव्यं क्रियावत् इति दत्तम्. तत्र उपरि दत्तानि द्रव्यक्रियाणां समवायसम्बन्धस्य कृते, तत्र उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमनानि पञ्चकर्माणि इति श्लोकेन गमनक्रिया अपि तत्र क्रियाणां क्रिया इति भवति अथवा कर्म इति. तत्र सर्पं विना तस्य सर्पस्य प्रसर्पणक्रिया न भवति, तस्मात् उत्क्षेपणादिक्रियाः इति अपि. अपि च यस्मिन् द्रव्ये उत्क्षेपणादिक्रियाः सन्ति तत् द्रव्यं गुणवत् इति भवति. तत्रापि पुनः नपुंसकलिङ्गे गुणवान् गुणवती इति अपि भवितुमर्हति, तत्र पुंलिङ्गे अथवा स्त्रीलिङ्गे अस्ति चेत्. अग्रे घटत्वादिजातिः तत्र अन्ते घटत्वादिजातिः इति दर्शितम् अपि च घट घटादिव्यक्तिः जातिमति इति उक्तं तत्र तत्र यत् अहम् अवगतवती इत्युक्ते तत्र सर्वे घटाः स्वीकृत्य घटान् सर्वे घटान् स्वीकृत्य घटत्वादिजातिः इति कृत्वा तत्र घटादिव्यक्तिः जातिमति इति स्वीकृतम् तत्र अन्ते किम् उक्तम् इत्युक्ते पुस्तके यत् उपरि दत्तं तस्य कृते तत्र किं समरि इति कृत्वा अवयव अवयवाव अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः इति अन्ते उक्तं तत्र तत्र आशयाणाम् आधेयानां च नानात्वे अपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते तत्र नानात्वेपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते इति उक्तत्वात् अग्रे लाघवम् इति किम् इति प्रश्नः उदेति अतः तत्र अग्रे तत्र अग्रे दत्तं लाघवगौरवस्वरूपम् इति तत् अस्तु तत्र एतत् सर्वं समवायः इति किमर्थं कृतवन्तः इत्यस्य उत्तरं तत्र लाघवं नाम विचारसौकर्यम् इति तत्र तु एकम् उदाहरणं व्यावहारिक उदाहरणं स्वीकृतं यदा वयम् आपणं गन्तुम् इच्छामः तदा यदि द्वे वा त्रीणि वस्तूनां क्रयणं भवति चेत् कोऽपि क्लेशः नास्ति विचारे धारणे च इत्युक्ते अवगमने स्मरणे च सुलभतया कर्तुं शक्नुमः किन्तु अधिकवस्तूनां क्रयणं भवति चेत् क्लेशः भवति एव तदा लेखनीयं भवति किं किम् आनीयम् इति तथा एव तत्र इदम् एव विचारसौकर्यम् इति भवति तत् विचारसौकर्यं लाघवत्वम् इति उच्यते अपि च तद्विरुद्धम् इत्युक्ते असौकर्यं गौरवत्वम् इति उच्यते तस्य सम्बन्धः समवायस्य कृते किम् इति चेत् तथा एव अनेके आश्रयाः आधेयाः च सन्ति तस्मात् अनेके समवायाः अपि भूत्वा गौरवं भवति असौकर्यं भवति तत्र धारणे विचारे च इति कृत्वा विचारसौकर्याय एक एव समवायः इति अङ्गीक्रियते तदर्थम् एव तत्र अनेकानाम् एक एव समवायः कृतः इति अस्य पाठस्य आशयः तावदेव महोदय धन्यवादः
धन्यवादः भगिनि उत्तमम् आसीत् धन्यवादः सर्वे सर्वान् अंशान् बहु उत्तमरीत्या भवती तत्र प्रतिपादितवती धन्यवादः भगिनि
धन्यवादः
अतः तत्र सर्वेषां पुनस्मरणं जातम् इति मन्ये अपि तत्र अवगमनम् अपि तत्र तस्मिन् विषये अपि तत्र यदि अंशाः आसन् येषां तत्र किञ्चित् क्लेशः आसीत् किन्तु इदानीं तत् सर्वं समीचीनतया स्थापितं मनसि इति मन्ये अस्तु तर्हि अग्रे सरामः धन्यवादः भगिनि अस्तु अग्रे तत्र जयलक्ष्मी भगिनी भवती एव तत्र आरम्भं करोति वा तत्र अभाववर्णनम् इति
आं महोदय पठामि अहं गते वर्गे न आगतम् अतः किञ्चित् क्लेशः अस्ति किन्तु पठामि
अस्तु भगिनि हा अस्तु
अभाववर्णनं अत्र पश्यतु पूर्वं मात्रा द्वयमेव उक्तं तदा अङ्गीकृत्य प्रवृत्तः तदा आहरणाय ततः भार्यायाः पञ्चाशाः पदार्थाः
भगिनि क्षम्यतां तत्र मध्यभागे अभाववर्णनम् इति उपशीर्षिकः अस्ति खलु
एतावत् इति आरभ्य
तत्र भगिनि
अस्तु अस्तु अभाववर्णनं एतावता उद्देश्यक्रमानुसारेण षड् भावाः निरूपिताः भावो नाम यः अस्ति इति प्रतीयते यथा द्रव्यमस्ति गुणः अस्ति समवायः अस्ति ते भावाः इति कथ्यन्ते इदानीं यः नास्ति इति ज्ञायते तदभावं परिशीलयामः किञ्चित् भूतलम् अस्ति तत्र घटो यदि अस्ति तदा एवं व्यवहरामः अत्र भूतले घटः अस्ति इति यदि घटः अपसारितः तदा वदामः अत्र घटः नास्ति घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति तदा घटो नास्ति इति वक्तुं कः ज्ञातव्यो भवति सः एव अभावः इत्युच्यते तावत् महोदय
तावत्पर्यन्तं भगिनि
अत्र अभावः इति पदार्थस्य विवरणं दत्तमस्ति अभावः किम् इति वर्णने सति एकः भूतलः अस्ति तस्मिन् कश्चित् अस्ति घटः अस्ति इति वदामः चेत् तस्य भावः यदा अस्ति तदा तस्य अस्तित्वम् अस्ति इति वक्तुं शक्नुमः यदि तत्र यः कोऽपि घटः अपसारितः तत् घटः अपसारितः चेत् तत् घटः नास्ति इति यदि तादृशसन्दर्भे घटस्य अभावः अस्ति इति वक्तुं शक्नुमः
इति सारांशः समीचीनं भगिनि इति सारांशः अस्तु धन्यवादः भगिनि उत्तमम् अस्तु अग्रे तत्र नरसिंहमहोदय अग्रे पठितुम् इच्छति वा तत्र वस्तुतः एतदेव नरसिंहमहोदय
क्षम्यतां किञ्चित् बहिः अस्मि महोदय
अस्तु अस्तु चिन्ता मास्तु अस्तु तर्हि तत्र विमला भगिनि
आम् महोदय
एतदेव एषः परिच्छेदः एव तत्र एतमेव परिच्छेदं पुनः पठित्वा तत्र पठनं मास्तु किन्तु तत्र पङ्क्तिशः किञ्चित् विवृणोति वा
एतावता अत्र अभावस्य वर्णनं कृतम् एतावता उद्देश्यक्रमानुसारेण षड् भावाः निरूपिताः
नाम षट् पदार्थानां तत्र निरूपणं कृतं खलु
सप्तमः पदार्थः अस्ति अभावः इति
समीचीनं
सप्तमपदार्थस्य विवरणं दीयते भावः नाम यः अस्ति इति प्रतीयते द्रव्येषु यत् अस्ति स एव भावः इति प्रतीयते
तद् अस्ति इति प्रतीयते नाम भासते तद् अस्ति इति वयं जानीमः तत्र पश्यामः अथवा शृणुमः अथवा तत्र तद् अस्ति इति अस्माकं ज्ञानम् अस्ति तद् तद्वस्तु अस्ति एव किन्तु वस्तु अन्यत्र अस्ति चेत् अस्माकं ज्ञानं नास्ति खलु किन्तु यदि पश्यामः तदा अस्माकं ज्ञानं भवति ओ अस्तु एतद् वस्तु अस्ति इति
तस्य
तद् ज्ञानमस्ति तद् ज्ञानमस्ति भावः इति तद् अस्ति इति ज्ञानम् एतत् प्रतीयते तत् प्रतीयते अग्रे
द्रव्यम् अस्ति गुणः अस्ति समवायः अस्ति इति उक्तं तदेव भावः ते भावाः इति कथ्यन्ते इति उक्तम् इदानीं यः न अस्ति इति ज्ञायते तम् अभावं परिशीलयामः एतावता अस्माभिः यत् अस्ति इति तस्य विवरणं उदाहरणसमेत दत्तं यदि कश्चित् वस्तुः नास्ति तत् किं तत् अभावः तत् अभावं परिशीलयामः उदाहरणमस्ति भूतले यदा घटः अस्ति तदा अहं वदामः अत्र भूतले घटः अस्ति इति घटः ततः निर्गतः अपसारितः तदा अत्र घटः नास्ति इति वदामः. घटः अस्ति इति वक्तुं घटस्य अस्तित्वं ज्ञातव्यम्
अथवा तत्र घटः ज्ञातव्यः नाम घटः कः इति ज्ञातव्यः खलु. नो चेत् केवलं किमपि वस्तु अस्ति इति वदामः, किन्तु ओ घटः अत्र अस्ति इति यदि वदामः तत्र घटस्य ज्ञानं भवेत्.
घटः किम् इति,
घटः कः इति, हा इति तस्य ज्ञानं भवेत्. हा
तदा घटः न अस्ति इति वक्तुं कः ज्ञातव्यः भवति, तत् अभावः इति उच्यते.
हा नाम यत् ज्ञानम् आवश्यकम् अस्ति येन तत्र घटः नास्ति इति तत्र वक्तुं शक्नुमः, सः पदार्थः भवति अभावः इति. समीचीनं भगिनी, अस्तु. अतः तत्र अभावः इति, तत्र अभावः कः इति लौकिकरूपेण तत्र परिचयः दत्तः. इदानीम् अग्रे पश्यामः. धन्यवादः भगिनि. अस्तु अग्रे तत्र राजी भगिनी पठितुम् इच्छति वा?
आं महोदय, पठामि.
अस्तु.
अत्र व्यवहारोऽपि अस्ति विशेषः. पात्रे अस्मिन् कियत् जलमस्ति इति पृष्टे अर्धमस्ति इति किञ्चित् वक्ता, किञ्चित् तु अर्धं पात्रस्य रिक्तम् अस्ति इति वक्ति. पात्रं तु तदेव, जलमपि तावदेव, तथापि किञ्चित् अस्ति इति वदति, किञ्चित् नास्ति इति वदति. तद्वदेव सर्वैः अभावम् अधिकृत्य भूतले घटः नास्ति इति उच्यते. न्यायशास्त्रे नास्ति इति अनुवक्ता भूतले घट अभावः अस्ति इति उच्यते.
हा अस्तु, किञ्चित् तत्र पङ्क्तिशः पठित्वा पुनः विवृणोति वा?
प्रयत्नं करोमि.
अस्तु,
अत्र व्यवहारोऽपि अस्ति विशेषः.
नाम अस्मिन् व्यवहारे तत्र अस्ति अथवा नास्ति इति व्यवहारे कश्चन विशेषः अस्ति. विशेषः इदानीं तत्र पदार्थः नास्ति, केवलं नाम स्पेशल् किमपि अस्ति इति तावदेव. तत्र विशेषः इति पदार्थः नास्ति. हा अस्तु.
पात्रे अस्मिन् कियत् जलम् अस्ति इति पृष्टे अर्धम् अस्ति इति कश्चित् वदति. अर्धभागमेव चषके पात्रे अर्धभागमेव जलम् अस्ति इति जनः
कोऽपि वदति.
कश्चित् अर्धं पात्रस्य रिक्तम् अस्ति इति वदति. अन्यस्य दर्शनं भिन्नरीत्या अस्ति.
अस्ति
इति एकस्य दर्शनं भवति. कियत् नास्ति मीन्स् अभावः कियत् अस्ति इति अन्यस्य दर्शनं भवति. कश्चित् अर्धं पात्रस्य रिक्तम् अस्ति इति वदति. पात्रं तु तदेव, परन्तु समानपात्रमेव, अर्धचषकमेव अर्धपात्रमेव अस्ति, परन्तु दर्शनं तु भिन्नम् अस्ति. अत्र समानपात्रं समान कियत् जलम् इति तदपि समानमेव, तथापि किञ्चित् अस्ति इति वदति. सोरि, कश्चित् नास्ति इति वदति. तद्वदेव सर्वैः अभावम् अधिकृत्य भूतले घटः नास्ति इति उच्यते. एतस्य पङ्क्ति सम्यक् अहं न अवगच्छामि.
हा तत्र भूतले घटो नास्ति इति उच्यते नाम तत्र यदि तत्र सर्वैः अभावम् अधिकृत्य भूतले घटो नास्ति इति उच्यते. तत्र यदि भूतले अत्र घटम् अस्ति वा, तत्र घटः किं घटं, तत्र यथा वयं तत्र अर्धजलं नास्ति इति वदामः तावदेव तत्र घटस्य ज्ञानं नास्ति चेदपि तत्र घटः नास्ति इति एव वदामः तावदेव. इदानीम् अग्रे तत्र न्यायशास्त्रे अभावः कः इति अग्रे उच्यते तावदेव तत्र. अस्तु अग्रे.
न्यायशास्त्रे नास्ति इति अनुवक्ता भूतले घट
अनुक्त्वा
भूतले घट अभावः अस्ति इति उच्यते.
हा तत्र न्यायशास्त्रे तत्र घटः नास्ति इति अनुक्त्वा तद् न वदामः, किन्तु घट अभावः अस्ति इति वदामः
नास्ति स्थाने वयम् अभावः इति वदामः
हा अभावः इति कोऽपि पदार्थः सः पदार्थः अत्र अस्ति इति वदामः इदानीम् अग्रे धन्यवादः भगिनि इदानीम् अग्रे तत्र अभावस्य वर्णनं भवति धन्यवादः भगिनि समीचीनम् अस्तु अग्रे तत्र शुभदा भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय श्रूयते वा
हा श्रूयते भगिनि
अस्तु
अग्रिमे पुटे
विरोधनिरूपणम् अयं घटाभावः घटस्य अभावः अयञ्च घटे न घटे सति अयञ्च घटे सति न ज्ञायते घटे असति ज्ञायते लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते यथा नकुलः अस्ति चेत् सर्पः न भवति सर्पः अस्ति चेत् एवं विद्मः अत्र नकुलः नास्ति इति
तावत् पर्यन्तम् अस्तु
अत्र विरोधस्य निरूपणम् इति दत्तमस्ति विरोधः अस्ति विरोधस्य अनुषङ्गेन घटस्य अभावः किम् इति अत्र निरूपितमस्ति घटाभावः इति घटस्य अभावः इत्युक्ते एतत्तु समासरूपेण समासविग्रहस्य रूपेण इति दत्तमस्ति घटस्य अभावः इति अयं च घटे सति न ज्ञायते घटे असति ज्ञायते इति विपरीतरूपेण अत्र उक्तमस्ति घटस्य अभावः यथा अस्ति यथा अस्ति
न घटे सति नाम तत्र सति इति पदं पदपरिचयं किमस्ति सति नाम घटे सति इति
घटे सति इति सतिसप्तमीरूपेण
सतिसप्तमी हा तत्र सति इति सन् इति अस् धातोः शत्रन्तरूपं तदनन्तरं सति इति सन् इति पदस्य सप्तमीरूपं हा तत्र नाम यदि घटः अस्ति तदा घटाभावः कः इति न ज्ञायते केवलं घटे असति नाम यदा केवलं यदा घटः नास्ति तथा एव यदा घटः नास्ति तदा एव तत्र घटाभावः ज्ञायते नाम तत्र घटाभावः घटाभावस्य ज्ञानं भवति अस्माकं घटः अस्ति चेत् तत्र घटाभावस्य ज्ञानं न भवति इति तावत् इति वर्तते
घटः अस्ति चेत् तस्य अभावः इति न ज्ञायते परन्तु घटे असति इत्युक्ते घटः नासीत्
घटः नास्ति तदा
तदा तस्य अभावः इति ज्ञायते
हा इति ज्ञायते
लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते लोके इत्युक्ते लौकिक लौकिकविश्वे अपि एवंविधा स्थितिः एव विरोधः इति व्यवह्रियते
उदाहरणं दत्तम् अग्रे
उदाहरणम् इति नकुलः अस्ति चेत् सर्पः न भवति सर्पः अस्ति चेत् एवं विद्मः अत्र नकुलः नास्ति इति यत्र नकुलः अस्ति नकुलः अपि च सर्पः एते विरोधाभासः एकमेकस्य विरोधः इति विरोधः अस्ति अतः यत्र नकुलः अस्ति तत्र इति ज्ञायते ज्ञापनं भवति यत् तत्र सर्पः न भवति अपि च यत्र सर्पः अस्ति तस्य परिस्थित्याः ज्ञापनं भवति यत् तत्र नकुलः नास्ति सर्पस्य अस्तित्वः अस्ति यतोहि तत्र नकुलः नास्ति चेदेव अस्ति अतः तत्र विरोधाभासेन अति विवरणं दत्तमस्ति इति
हा अतः समीचीनं तत्र विरोधः नाम सर्प अपि नकुल तयोः मध्ये विरोधः अस्ति खलु तथैव तत्र घटः अपि घटाभावः तयोः मध्ये विरोधः अस्ति किन्तु तत्र सूक्ष्मभेदः वर्तते इति प्रदर्शितुम् अग्रे तत्र उक्तमस्ति समीचीनं भगिनि धन्यवादः
धन्यवादः
अस्तु अग्रे तत्र अग्रे सरिता भगिनी अग्रे पठितुम् इच्छति वा
अस्तु प्रयत्नं करोमि भवान्
अस्तु
वध्यघातक वध्यघातकभावरूपविरोध श्रूयते वा?
श्रूयते भगिनि, श्रूयते.
अयं विरोधः द्विविधः भवति. वध्यघातकभावः सहानवस्थानं तत्र अहेः नकुलस्य च विरोधः वध्यघातकभावरूपः. तथा हि कुत्रचित् सर्पः अस्ति. अत्र यदि विरोधाभाव विरोध इति नाम्ना तत्र तस्य द्विविधा भवति. तत्र वध्यघातकभावः एकं प्रकारः एकः प्रकारः, सहानवस्थानम् इति अन्यम्. सः अनवस्थानम्. अत्र अहेः इति मन्ये सर्पस्य खलु?
समीचीनम्. अहिः अहेः, अहि नाम सर्पः. समीचीनं.
अहेः नकुलस्य च विरोधः वध्यघातकभावरूपः. तत्र तस्य तथा कथं भवति वध्यघातकभावरूपः?
सूत्रेण दर्शितमस्ति. अतः तत्र प्रथमक्षणे किमस्ति, द्वितीयक्षणे किमस्ति इति किञ्चित् पठित्वा
अस्तु. तथा हि कुत्रचित् सर्पः अस्ति, तस्य निरूपणं भवति अत्र. प्रथमक्षणः सर्पः एव अस्ति. प्रथमे सर्पः एव अस्ति, द्वितीयक्षणे अनन्तरं किञ्चित् अनन्तरमपि सर्पः एव अस्ति. तृतीयक्षणे अनन्तरं सर्पः अस्ति, नकुलः अपि अस्ति. अत्र द्वयोः तत्र प्रसक्ति अस्ति. तत्र द्वयोः तत्र भवति भवतः. चतुर्थक्षणे अनन्तरं यद् सर्पः नष्टः जातः, नकुलः तत् नकुलः अस्ति तत्र. तत्र किम् अभवत्? तत्र सर्पः अस्ति, अनन्तरमपि सर्पः अस्ति, परन्तु नकुलस्य आगमनं भवति तत्र. नकुलस्य आगमनात् तत्र सर्पः नष्टः जातः. किमर्थं तत्र विरोधाभावः अस्ति? तत्र वध्यघातकभावः अस्ति. एकस्य केवलम् एक एव तिष्ठति तत्र, अन्यस्य अभावः भवति इति.
अभावः इति मास्तु, किन्तु तत्र अन्यः एकः एकस्य हननं भवति खलु? तत्र
हननं भवति.
हननं भवति. अतः तत्र वध्यघातकभावः इति नाम
इति.
अतः तत्र एषः विरोध एतस्य विरोधस्य नाम अस्ति तत्र वध्यघातक तत्र भावः एव, तत्र अभावः नास्ति. केवलं तत्र कीदृशभावः, तत्र विरोधस्य नाम वध्यघातकभावः इति विरोधः. समीचीनं भगिनी, तत्र समीचीनं, धन्यवादः. अस्तु, अग्रे तत्र अनघा भगिनी पठितुम् इच्छति वा अग्रिमपरिच्छेदम्? अनघा भगिनी,
तथा च वध्यघातकभावरूपे विरोधे ययोः विरोधः वर्ण्यते. तयोः उभयः अपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति. यथा प्रकृति उदाहरणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः, एवम् एकेन अग्रिमक्षणे ततः अपि अधिककालेन वा अपरस्य नाशः क्रियते. अयं विरोधः शास्त्रे वध्यघातकभाव इति प्रसिद्धः. चतुर्थः परीक्षणः अस्ति. प्रथमक्षणे सर्पः अस्ति, द्वितीयक्षणे सर्पः अस्ति, तृतीयक्षणे सर्प एवं नकुलः अस्ति, चतुर्थक्षणे नकुलः हन्ति सर्पः. सो दिस् I can't explain, but I have understood this.
अस्तु अस्तु भगिनि, समीचीनमेव, धन्यवादः. तावदेव, किन्तु तत्र इदानीं तत्र पङ्क्तिशः अपि किञ्चित् अन्य कोऽपि विवृणोति, किन्तु धन्यवादः भगिनि. एतावत् यदि कर्तुं शक्नोति चेत् बहु लाभः. धन्यवादः भगिनि. समीचीनं, समीचीनम्. अस्तु, अग्रे तत्र सुबोध् महोदय अग्रे तत्र अस्मिन् परिच्छेदे किमस्ति इति किञ्चित् विवृणोति वा? बहु किमपि वक्तुं नास्ति अत्र, किन्तु किञ्चित् वदति वा सुबोध् महोदय?
प्रयत्नं करोमि.
अस्तु,
वर्धक तथा च वध्यधातकभावरूपे विरोधः
विरोधे
ययोः विरोधः वर्ण्यते. अत्र वर्धधातकभावरूपस्य
तत्र विरोधः इति
विरोधः
द्विविधः अस्ति इति उक्तम्. इदानीम् अत्र प्रथमविध विरोधः कः इति उच्यते. तत्र वद्यघातकभावरूपे विरोधे तादृशविरोधः तस्मिन् किं भवति? ययोः विरोधः. अत्र कयोः विरोधः? अत्र
अत्र नकुलस्य च
सर्पस्य. समीचीनं, तयोः विरोधः वर्ण्यते. तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति खलु, यथा चित्रेण दर्शितं.
तत्र
तृतीयक्षणे द्वयोः अपि तत्र द्वयोः अपि एकस्मिन् काले एकस्मिन् स्थले तत्र स्थितिः भवति. हा, इदानीं तत्र तृतीयक्षणे एकत्र स्थितिः अस्ति, किन्तु अग्रे तत्र अग्रिमक्षणे वा अथवा ततोपि अधिककालेन वा किं भवति? एकस्य अथवा अपरस्य नाशः भवति, किन्तु तद् भिन्नं. किन्तु एकस्मिन् क्षणे तत्र सर्पः अपि अस्ति, नकुलः अपि अस्ति. हा, एतादृशस्य विरोधस्य नाम अस्ति
वद्यघातकभावः
इति प्रसिद्धः विरोधः. हा, अस्तु, समीचीनं महोदय, धन्यवादः.
धन्यवादः
महोदय. अस्तु, अग्रे तत्र आना भगिनी अग्रे पठितुम् इच्छति वा?
पठामि.
तत्र पश्यामि भगिनि, तत्र कस्य अस्ति इति न जानामि. तत्र अस्तु अस्तु अस्तु, इदानीम् एकनिमिषः. अस्तु,
सः नवस्थानरूपः विरोधः अभावः अभावस्थले.
हा, तत्र सः अनवस्थानरूपः विरोधः अभावस्थले.
सः अनवस्थानरूपः विरोधः अभावस्थले. सः अनवस्थानं नाम सः विरोधः यत्र उभयोः विरोधिनोः कस्मिन्नपि काले सः अवस्थानं स्थितिः न भवति. प्रथमक्षणे घटस्य अभावः, द्वितीयक्षणे घटस्य अभावः, तृतीयक्षणे घटः, चतुर्थक्षणे घटः.
अग्रिमे पुटे अपि किञ्चित्
यथा प्रकृते विविधेषु क्षणेषु घटः वा भवेत्, घट अभावः वा भवेत्, न कदाचित् उभाव. अयम् एव सः अनवस्थानरूपः विरोधः इति उच्यते.
अतः तत्र विरोधस्य द्वितीयप्रकारः कः इति अत्र उक्तः अस्ति. अतः तत्र
उभयोः विरोधिनोः कस्मिन् अपि काले सः अवस्थानं स्थितिः न भवति.
तत्र सः अवस्थानं स्थितिः नाम एकस्मिन् स्थले एकस्मिन् काले द्वयोः अपि तत्र अस्तित्वं न भवति. नाम तत्र भेदः कः? तत्र पूर्वं तत्र तत्र प्रथमक्षणे द्वितीयक्षणे तृतीयक्षणे चतुर्थक्षणे तत्र पूर्व तत्र सर्प नकुल तस्मिन् प्रसङ्गे किम् अभवत् इति एकवारं पुनः वदतु
प्रथमक्षणे अस्ति द्वितीयक्षणे सर्पः अपि आसीत् तृतीयक्षणे सर्पः आसीत् नकुलः च अपि आसीत् तदनन्तरं सर्पः गतः नकुलः आसीत् तेन वयं
वदामः समीचीनम् इदानीं तृतीयक्षणे किम् अभवत्
उभौ
उभौ अपि स्तः इति वार्ता तत्र तत्रापि विरोधः अस्ति खलु तत्र नकुलः सर्पः तयोः मध्ये अपि विरोधः अस्ति किन्तु सः विरोधः भिन्नः अस्ति यः विरोधः घटः अपि घटभाव तयोः मध्ये यः विरोधः अस्ति सः भिन्नः इति
इत्युक्ते तत्र वयं तुलनं कुर्मः अत्र तु तुलनं नास्ति अत्र एकः
तुलनं नाम भिन्नः अस्ति अत्र किं भवति एकस्मिन् क्षणे सर्पः अपि नकुलः अपि भवितुम् अर्ह तत्र भवन्ति अथवा भवतः किन्तु अत्र किं भवति यदा घटः अस्ति तत्र घटाभावः नास्ति यदि घटाभावः अस्ति तत्र घटः नास्ति अतः कोऽपि तत्र किम तत्र क्षणं नास्ति यस्मिन् घटः अपि अस्ति घटाभावः अपि अस्ति तत्र तादृशपरिस्थितिः नास्ति
तत्र प्रायः इदानीम् अहम् गृहे अस्मि प्रायः मम गृहे इदानीं किं वदामि किञ्चित् कस्याश्चित् पदार्थस्य अभावः अस्ति अत्र अश्वस्य अभावः अस्ति इदानीं
इदानीं तत्र यदि हा इदानीं तत्र लेखन्याः अभावः अस्ति इति चिन्तयतु इदानीं तत्र भवत्याः मित्रम् आगच्छति सा लेखनीम् आनयति इदानीं किं भवति लेखनी यदा आगच्छति तदा लेखन्याः अभावः गच्छति तत्र लेखनी अस्ति चेत् लेखन्याः अभावः नास्ति लेखनी नास्ति चेत् लेखन्याः अभावः अस्ति अतः तत्र कदापि द्वयोः उपस्थितिः न भवति यदा तत्र सर्पः नकुल तयोः उपस्थितिः एकस्मिन् काले एकस्मिन् स्थले भवति किन्तु तादृशी परिस्थितिः घटः घटाभावयोः मध्ये न भवति अतः द्वयं तत्र तत्र विरोधः सर्पनकुलयोः मध्ये अपि वर्तते घट घट घटाभावतयोः मध्ये अपि वर्तते किन्तु सूक्ष्मभेदः अस्ति नाम तत्र सः एकस्मिन् स्थले सः अवस्थानम् अस्ति अन्यस्मिन् स्थले सः अनवस्थानम् अस्ति समीचीनं वा भगिनि अनवस्थानम् द्वितीय उदाहरणे घट घटाभावः तयोः मध्ये सः अनवस्थानं नाम सः अवस्थानं नास्ति प्रथम उदाहरणे सर्पनकुल इति उदाहरणे सः अवस्थानं किन्तु तस्य नाम भिन्नः अस्ति नाम तत्र बद्यघातकभावः इति तत्र दत्तमस्ति अत्र स अनवस्थानरूपविरोधः इति द्वितीयप्रकारः सः एव तत्र घटाभावस्य वर्णने तत्र एषः विरोधः एव भवति
सः अवस्थानम् इत्युक्ते तत्र परस्परं नकुलसर्पौ स्तः
एकस्मिन् काले एकस्मिन् स्थले द्वयोः उपस्थितिः नाम तत्र नकुलः अपि अस्ति सर्पः अपि अस्ति इति
अस्तु अवगच्छ
अतः तत्र तृतीयक्षणे तृतीयक्षणे सर्पः नकुलः अपि अस्ति किन्तु अत्र द्वितीयक्षणपर्यन्तं घटाभावः अस्ति तृतीयक्षणे केवलं घटः एव
क्षम्यतां तर्हि अत्र तृतीयक्षणे बद्ध्यघातकभावः अस्ति इति तृतीयक्षणे वक्तव्यं वा चतुर्थे वक्तव्यम्?
अत्र बद्ध्यघातकभावः नास्ति अत्र, यतोहि तृतीयक्षणे तत्र केवलं घटः एव अस्ति, तत्र घट
न उपरि उपरि सप्तनकलयोः विषये तत्र तृतीयक्षे बद्ध्यघातकभावः तृतीयक्षणे अस्ति इति वक्तव्यं वा चतुर्थे अस्ति इति वक्तव्यम्?
तत्र केवलम् अस्मिन् क्षणे एषः भावः इति न, तत्र वर्णने तत्र तत्र तृतीयक्षणं चतुर्थक्षणम् इति स्वीकृतम् अस्ति.
आं सत्यं.
तदनन्तरं किं भवति, तत्र विरोधिनोः तत्र परिस्थितिः कीदृशी नाम तत्र एकस्य हननं भवति इति.
सत्यं.
तत्र केवलम् अतः तत्र नाम अस्ति बद्ध्यघातक
अत्यघातकभावः कुत्र अस्ति इति वक्तुं शक्नुमः वा इति, यदा अत्र तत्र अस्ति इति अभावः अस्ति इति वयं पठन्तः स्मः.
केवलं अत्र वार्ता एषः अस्ति नाम तत्र सर्प अपि नकुलतयोः मध्ये विरोधः अस्ति, किन्तु विरोधः घटः घटाभावतयोः मध्ये नास्ति. अतः तत्र सर्पनकुलमध्ये कीदृशविरोधः इदानीम् अस्माकं विषयः नास्ति. अस्माकं विषयः मूलविषयः अस्ति तत्र घटाभावः कीदृशः इति विषयः खलु. घटाभावः कीदृशः इति विषयः न्यायशास्त्रस्य विषयः. तस्य अवगमनार्थं तत्र यदि एतत् उदाहरणं नास्ति चेत् वयं चिन्तयामः तत्र विरोधः भावः नाम विरोधः अस्तु, तत्र सर्पनकुलयोः मध्ये यः विरोधः अस्ति तादृशः एषः विरोधः इति चिन्तयामः. तादृशं चिन्तनं मास्तु इति प्रदर्शनार्थम् एतद् उदाहरणं दर्शितम्. अतः तत्र बद्ध्यघातकभावः इति विरोधः अस्ति अस्तु, किन्तु तादृशविरोधः अत्र नास्ति. घटा घटः घटाभावः तयोः मध्ये नास्ति. अस्तु. अतः तत्र समीचीनं भगिनी सावित्री भगिनी.
आं स्पष्टं महोदय.
धन्यवादः. अस्तु अग्रे तत्र अग्रे योगेन्द्रमहोदय पठितुमिच्छति वा?
आं पठामि. अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता. अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा.
हा तावत्. हा अस्तु. अतः इदानीं किं भवति,
इदानीं यः घट अस्ति तस्य संज्ञा, तस्य नामकरणं भवति प्रतियोगिता.
यदा घट इति महोदय, तत्र घटः अपि घटाभावः तयोः मध्ये विरोधः अस्ति इति जानीमः खलु. इदानीं विरोधः अस्ति खलु, यतो यतोहि घटः नास्ति चेत् घटाभावः अस्ति. किन्तु यदा वयं
घटस्य अभावः अस्ति,
यदा इदानीं चिन्तयामः तत्र उत्पीठिका अस्ति, उत्पीठिका अस्ति, तत्र घटः किमपि घटः नास्ति. अत्र किं वदामः, घटाभावः अत्र वर्तते इति वदामः. अस्तु. इदानीं कोऽपि घटम् आनयति, तदा किं भवति, घटस्य आनयनेन किं भवति, घटाभावः अपगच्छति, घटाभावः नास्ति इदानीं, यतोहि घटः अस्ति. अस्तु. अतः तत्र घटः घटाभावः तयोः मध्ये विरोधः अस्ति, एकः अस्ति चेत् अन्यः नास्ति, अन्यः अस्ति चेत् प्रथमः नास्ति खलु. अतः तयोः मध्ये विरोधः अस्ति. विरोधः कुत्र अस्ति, विरोधः केवलं विरोधः कुत्र अस्ति, इदानीं घटः अस्ति घटाभावः अस्ति, विरोधः कुत्र अस्ति इति प्रश्नः.
घटः अस्ति घटाभावः अस्ति द्वयोः मध्ये
विरोधः इति अव इति भवान् अङ्गीकरोति खलु, तत्र विरोधः तयोः मध्ये विरोधः अस्ति इति अङ्गीकरोति खलु.
आम्.
इदानीं प्रश्नः अस्ति, सः विरोधः इति ज्ञानमस्ति अस्माकं, तत्र सः विरोधः कुत्र अस्ति, अतः तत्र उत्तरमस्ति, सः विरोधः घटे अपि अस्ति, घटे घटाभावं प्रति विरोधः अस्ति, घटाभावे घटं प्रति विरोधः अस्ति, यथा तत्र सर्पे नकुलं प्रति विरोधः अस्ति, नकुले सर्पं प्रति विरोधः अस्ति खलु? हा, तथैव घटे अपि विरोधः अस्ति घटाभावं प्रति, घटाभावे अपि विरोधः अस्ति घटं प्रति,
घटं प्रति.
हा, इदानीम् अतः तत्र विरोधद्वयमस्ति, एकः घटे अस्ति, अन्यः घटाभावे अस्ति. अतः घटे यः विरोधः अस्ति तस्य नाम अस्ति प्रतियोगिता. अतः तत्र पुनः पुनः वाक्यद्वयं पठतु महोदय. अत्र
अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा. घटे विद्यमानस्य विरोधस्य, घटे विद्यमान यः विरोधः अस्ति घटाभाव, तस्य संज्ञा
केवलं घटाभावं प्रति यः विरोधः अस्ति,
घटस्य अभाव प्रत्ययः विरोधः अस्ति तस्य नाम प्रतियोगिता इति भवति. इदानीम् अभावे विद्यमानस्य यः घटस्य अभावः अस्ति तत्र घटं प्रति यः विरोधः अस्ति तस्य नाम अनुयोगिता इति
नामकरणम्. अतः तत्र घटे विरोधः अस्ति, घटाभावे अपि विरोधः अस्ति, यतोहि द्वयोः तत्र विरोधिनौ खलु. अतः तत्र एकस्य विरोधः अस्ति अन्यं प्रति. अतः यः विरोधः घटे अस्ति तस्य नामकरणम् अस्ति प्रतियोगिता. अभावे यः विरोधः वर्तते तस्य नाम अस्ति अनियोगिता. तत्र प्रतियोगिता अनियोगिता इति. इदानीं केवलं नामकरणम्. इदानीं तत्र अग्रे तत्र प्रतियोगिता अनियोगिता तयोः मध्ये कीदृशसम्बन्धः इति तत् अग्रे ज्ञास्यामः. समीचीनं महोदय, धन्यवादः.
धन्यवादः
धन्यवादः महोदय. अस्तु, अग्रे तत्र पद्मा भगिनी पठितुम् इच्छति वा?
नमस्ते, पठामि.
नमस्ते महोदय.
इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति. विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति. एवम् अनियोगितायाः अपि ससम्बद्धिकत्वम् अस्ति. अतः आदेयथा अधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्र अपि वक्तव्यः. अत्र प्रतियोगिता अनियोगिता इति केवलं नामकरणम् इति वयं दृष्टवन्तः. तत्र घटः अस्ति, तत्र विद्यमानविरोधः प्रतियोगिता इति नामकरणम्, अभावस्य नामकरणम् अनियोगिता इति. तत्र
अभावस्य किञ्चित् तत्र घटः अस्ति इति न, अपि घटः नास्ति इति अपि वार्ता नास्ति. घटः अस्ति, घटः अभावः अस्ति, घटाभावः नाम घटः नास्ति इति स्थितिः. अस्तु, घटः नास्ति नाम घटाभावः अस्ति, घटः अस्ति अथवा घटाभावः अस्ति, केवलम् एकमेव भवितुम् अर्हति खलु. यदि तत्र पश्यामः तत्र उत्पीठिकायां किम् अस्ति, घटः अस्ति चेत् वयं वदामः घटः अस्ति, यदि घटः नास्ति चेत् वयं वदामः घटः नास्ति अथवा घटाभावः अस्ति इति वदामः. किन्तु घटः अस्ति, घटाभावः अपि अस्ति इति वक्तुं शक्नुमः वा? न खलु.
न,
अतः तत्र तयोः मध्ये विरोधः वर्तते. नाम एकः अस्ति चेत् अन्यः नास्ति खलु. अतः विरोधः नाम परस्परविरोधः अस्ति, वर्तते खलु तयोः मध्ये. अतः विरोधः कुत्र वर्तते? घटे अपि वर्तते विरोधः, घटाभावे अपि विरोधः वर्तते. विरोधः इति इदानीं विषयः अस्माकं. घटः न, घटे विद्यमानविरोधः इति विषयः अपि
घटाभावविरोधः प्रतियोगिता घट अभावे विद्यमानविरोधः अनुयोगिता
इति समीचीनं हा तदेव अस्ति हा इदानीं प्रतियोगिता इति अस्ति अनियोगिता इति अस्ति इदानीं तयोः नाम अग्रे वर्णितमस्ति अग्रिमवाक्यं पठतु
विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति यथा वयं प्रतियोगिता इति केवलं वदामः चेत् तत्र कस्य प्रतियोगिता अस्ति इति प्रश्नः उत्पद्यते अस्माकं मनसि यदा वयं पूर्वं दृष्टवन्तः पुत्रः अस्ति इति वयं वदामः चेत् कस्य पुत्रः इति एका आकाङ्क्षा वर्तते तादृशम् अद्य प्रतियोगिता इति वयं वदामः चेत् अत्र कस्य प्रतियोगिता इति एकः प्रश्नः उदेति तादृशम् अनियोगिता इति वयं वदामः चेत् कस्य अनियोगिता इति एका आकाङ्क्षा वर्तते
इति एव समीचीनम् अतः अग्रे
अतः द्वयोः मध्ये ससम्बन्धभावः अस्ति ससम्बन्धितत्वमस्ति
सम्बन्धिनौ इति उक्तवन्तः खलु पूर्वम्
अतः आदेयता अधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः इति
इति नाम तत्र आदेयता अधिकरणता यत्र आसीत् तत्र यज्ञदत्तः आसन्दे अस्ति इति तस्मिन् समये वयं तत्र यज्ञदत्ते आदेयता अस्ति आसने
आसने अधिकरणता
अस्ति तयोः मध्ये तत्र निरूप्यनिरूपकभावः अस्ति इति उक्तवन्तः तथैव अत्रापि करणीयं भवति इति अत्र अस्तु तत्र प्रयत्नं करोति वा भगिनि तत्र घटनिष्ठा इति
घटनिष्ठा प्रतियोगिता निरूपिता अनुयोगिता आश्रयः अभावः
इति समीचीनम् अस्तु समीचीनं भगिनि इदानीं तत्र अभावः इति आरभ्य
अभावम् आश्रित्य अभावनिष्ठा अनुयोगिता निरूपितप्रतियोगिता आश्रयः घटः
इति तथैव भवति समीचीनं भगिनि धन्यवादः उत्तमम् अस्तु अस्तु अग्रे तत्र उपेन्द्रमहोदय पठितुम् इच्छति वा
आम् आचार्य नमस्ते आचार्य
तत्र अत्र चित्रमस्ति खलु तत्र घटः अभावः इति यथा तत्र इदानीं पद्माभगिनी पठितवती अभावस्य वर्णनं कृतवती अपि घटस्य अभावं घटस्य वर्णनं कृतवती नाम कीदृशः घटः किन्तु तत्र अनुयोगिता कीदृशी इति वर्णनं कर्तुं प्रयत्नं करोति वा
आम् आचार्य अनुयोगिता एकः विरोधः
न तत्र चित्रं दृष्ट्वा घटाभावे अनियोगिता अस्ति तत्र चित्रं दृष्ट्वा
अभावः निष्ठ अनुयोगिता निरूपिता प्रतियोगिता आश्रयः घटः
तत्र किं भवति महोदय तत् सत्यमेव किन्तु तद् अन्ते यः यत् पदं भवति अत्र अन्तिमपदं किमासीत् भवतः घटः इति खलु
घटः इति
अतः किं भवति वर्णनं घटस्य वर्णनं भवति यतोहि कीदृशः घटः इति प्रश्नस्य उत्तरं भवति खलु
वर्णनं
किन्तु इदानीं घटस्य वर्णनं मास्तु इदानीम् अनियोगिता कीदृशी इति वर्णनं तत्र किं भवति अन्तिमपदम् अनियोगिता भवेत् अतः तत्र घटः इति आरभ्य घटः इति घटात् आरम्भं करोतु तत्र घटनिष्ठ
प्रतियोगिता
इदानीं तत्र अनियोगिता इति मास्तु निरूपिता अनुयोगिता कुत्र अस्ति
घटे
न अनियोगिता अनियोगिता
घटाभावे
केवलम् अभावे इति वदतु अभावे अतः तत्र अभावे अस्ति इति तत्र अभावे अस्ति इति कथं वदामः अभावनिष्ठ उपरि गन्तुं
अनियोगिता
तदेव तावदेव
अनियोगिता
इति एव इति एव वर्णनं तत्र कीदृशी अनियोगिता कीदृशी अनियोगिता
घट
घटनिष्ठ
घटनिष्ठ घटनिष्ठ
प्रतियोगिता
घटनिष्ठ प्रतियोगिता निरूपित
अभाव
अभावनिष्ठ अनुयोगिता
इति तावदेव तत्र केवलं स्ट्रेट् लैन् इति न गन्तव्यं डायग्नल् मध्ये गन्तव्यं तावदेव
आम्
आचार्य इति एव समीचीनम् अतः तत्र पुनः
अभावनिष्ठ अनुयोगिता
इति समीचीनम् इदानीं तत्र पुनः तत्र प्रतियोगिता कीदृशी इति वर्णयतु
प्रतियोगिता अभावनिष्ठ अनुयोगिता निरूपिता घटनिष्ठ प्रतियोगिता
इति एव अस्ति समीचीनं महोदय धन्यवादः उत्तमम् अस्तु तत्र अग्रे समीचीनम् अस्तु तत्र अग्रे सर्वाणि भगिनि इदानीं तत्र
नमस्ते महोदय वक्तुं शक्नोति वा
तदेव तदेव भवति इदानीं तत्र भवती कर्तुम् इच्छति वा
न मया सम्यक् न अवगतम् अतः
भवत्याः नाम किं भगिनि भवत्याः नाम किम्
अहम् उदिता
उदिता भगिनि अस्तु नमस्कारः भगिनि अस्तु तत्र अन्य कोऽपि इदानीं करोति भगिनि एकनिमिषः अस्तु तत्र सर्वाणि भगिनि नमस्कारः न श्रूयते सर्वाणि भगिनि
इदानीं श्रूयते वा महोदय
हा श्रूयते इदानीं श्रूयते भगिनि हा भगिनि तत्र पुनः इदानीं तत्र घटः अपि अभावः तत्र प्रथमतया तत्र घटस्य तत्र अभावस्य वर्णनं करोतु तदनन्तरम् अनियोगितायाः वर्णनं करोति वा
प्रथमतः अभावस्य वर्णनं
आम्
घटनिष्ठा प्रतियोगिता निरूपित अनुयोगिता आश्रयः अभावः
हा इति समीचीनं हा हा इदानीं तद् मास्तु इदानीम् अनियोगिता कीदृशी इति वर्णनं
घटनिष्ठा प्रतियोगिता निरूपित अभावनिष्ठा अनुयोगिता
इति भवति समीचीनं भगिनि हा उत्तमम् इदानीं पुनः प्रतियोगिता कीदृशी इति वर्णयतु
अभावनिष्ठा अनुयोगिता निरूपित घटनिष्ठा प्रतियोगिता
तावदेव भवति अस्तु अतः तत्र वर्णनं कीदृशम् इति अवगतं खलु भगिनि
आं महोदय
अस्तु समीचीनम् अस्तु तत्र उदिता भगिनि अवगतं वा
हा तत्र अभावनिष्ठ अस्ति पुनः घटनिष्ठ एव वा घट आश्रयः वा
सत्यं भगिनि यतोहि तत्र क्रमः कः इत्युक्ते उपरि गमने निष्ठ इति वदामः अधोगमने बत् अथवा वान् अपि आश्रयः इति भवति किन्तु
अतः इदानीम् अत्र अभावनिष्ठ अनुयोगितानिरूपित घटाश्रय घटाश्रय प्रतियोगिता भवति वा घटनिष्ठ प्रतियोगिता
आश्रयः कः तत्र घटः एव आश्रयः खलु अतः घटे प्रतियोगिता अस्ति अतः तत्र किम् उपरि तत्र प्रतियोगिता उपरि अस्ति उपरि गमने किं कुर्मः
निष्ठ इति वदामः
अतः तत्र किं कुर्मः तत्र यदि केवलम् अभावः अथवा घटस्य वर्णनं भवति चेत् अभावस्य वर्णनं यथा तत्र सर्वाणि भगिनी कृतवती घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः तत्र आश्रयस्य वर्णनं इदानीम् आश्रयस्य अभावस्य वर्णनं किन्तु अभावस्य वर्णनं मास्तु अनियोगिता कीदृशी इति वक्तुम् इच्छामः तत्र किं भवति अनियोगिता एव अन्तिमपदं भवेत् अनियोगिता कुत्र अस्ति अनियोगिता कीदृशी नाम अभावनिष्ठ अनियोगिता खलु अस्तु विशेषणं भवति खलु अभावनिष्ठ अनियोगिता इति एकं विशेषणं भवति अन्यः विशेषणम् अस्ति तत्र घटनिष्ठप्रतियोगितानिरूपित अनियोगिता किन्तु सा अनियोगिता कुत्र अस्ति अभावनिष्ठा अस्ति अतः तत्र घटनिष्ठ प्रतियोगिता निरूपित अभावनिष्ठ अनुयोगिता इति पूर्णवर्णनं भवति.
अवगतं, धन्यवादः
महोदय. एतादृशं वर्णनं अनेकवारं भवति, वारं वारं तत्र प्रतियोगिता निरूपित अनियोगिता निष्ठ वर्ण वान् आश्रयः बहु बहु भारं भवति. अतः तत्र एतस्य अभ्यासः तत्र सर्वे तत्र अभ्यासं सर्वे कुर्वन्तु. अतः तत्र घटाभावः अधेयता अनियोगिता तत्र प्रतियोगितायाः वर्णनम् अनियोगितायाः वर्णनं सर्वं भवेत्. अस्तु, समीचीनम्. अस्तु, तर्हि अग्रे सरामः. अग्रे तत्र सुधा भगिनी अग्रे पठितुम् इच्छति वा?
आं महोदय. सामान्य अभाववर्णनं
न अधोभागे इति.
ओ सोरि. घटनिष्ठप्रतियोगितानिरूपित अनुयोगिताश्रय अभावः, अभावनिष्ठ अनियोगितानिरूपित प्रतियोगिता आश्रयः घटः इति वक्तव्यम्. अयमेव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः.
तत्र किमपि नास्ति, यथा वयं वर्णनं कृतवन्तः तावदेव अस्ति. किन्तु अग्रे पश्यामः, तत्र अभावस्य तत्र चतुर्विधाः सन्ति. एतस्य अभावस्य नाम अस्ति अत्यन्त अभावः इति. इदानीम् अतः तत्र किमपि नास्ति भगिनि. इदानीं तत्र अग्रिमे पुटे यदस्ति तत् पठतु भगिनि.
सामान्य अभाववर्णनं, इदानीं तस्य सामान्य अभाव इति प्रकारः निरूप्यते.
एकनिमिष भगिनि, अत्र सामान्य इति सामान्यम् इति पदार्थः मास्तु अत्र अस्मिन् प्रसङ्गे. तत्र सामान्य नाम साधारण, तत्र किमपि विशेषं नास्ति, साधारण इति सामान्यम् इति चिन्तनम् अत्र. अस्तु भगिनि.
प्रतियोगिता भावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितम्. सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा स सामान्य अभावः इत्युच्यते. सामान्यस्य अभावः इति यथा श्रुते तु अयं जातिर् अभावः स्यात्. कुतः? सामान्यं नाम प्राक्तरीत्या जातिः, तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः इत्यस्य घटस्य यत् सामान्यं घटस्य घटत्वं तस्य अभावः इत्यर्थः स्यात्. नायं विवक्षितः, किन्तु सर्वस्य घटस्य अभावः घटसामान्यं यत् घटत्वं तद्वान् सर्वोऽपि घटः, तस्य अभावोऽयं कोऽर्थम्? सर्वोऽपि घटः अस्य विरोधी. येन केनापि घटेन घटसामान्य अभावस्य अपसारणं कर्तुं शक्यम्. अत्रेदं समीचीनम् उदाहरणं पश्यामः.
अस्तु भगिनि, तत्र बहु किमपि अस्ति. अतः तत्र प्रायशः तत्र पङ्क्तित्रयम् इति स्वीकृत्य किञ्चित् वदतु भगिनि.
आं महोदय, इदानीं पर्यन्तं वयं दृष्टवन्तः घटादौ यत् विद्यमानः विरोधः इति प्रतियोगिता नाम्ना उच्यते इति निरूपितं.
समीचीनं. तत्र प्रतियोगिता नाम किं? तत्र भावपदार्थे घटादौ विद्यमानः विरोधः इति तदेव प्रतियोगिता इति नामकरणं. समीचीनं.
सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इत्युच्यते.
तत्र किम् अस्ति नाम, यदि घटाभावः इति वदामः, तत्र केवलम् एकस्य घटाभावः इति भवति वा? नाम तत्र यः कोऽपि घटः अस्ति तस्य आनयनेन घटाभावः गच्छति खलु? नाम केवलं तत्र मम गृहे यः घटः अस्ति तत्र चिन्तयामः, तत्र कार्यालये घटाभावः अस्ति, अहं घटम् आनयामि, इदानीं तत्र घटाभावः गच्छति, अपगच्छति. अद्य अहं न आनीतवान्, अन्य कोऽपि घटम् आनीतवान्, कदापि तत्र किं घटाभावः भवति वा अथवा गच्छति वा?
घटाभावः
गच्छति. अतः तत्र यः कोऽपि घटः भवतु, तस्य आनयनेन घटाभावः गच्छति. अतः एव तस्य नाम अस्ति सामान्यघटाभावः.
किमपि
विशेषघटः नास्ति, अतः तत्र सामान्य नाम साधारणघटाभावः. तत्र घटस्य जातिः अस्ति घटत्वं, घटत्वजाति. तत्र अतः एव तत्र एकजातियुक्तेषु स जातीयेषु नाम घटत्वमिति जातिः अस्ति, तेषु तस्य किमपि तत्र तत्र कोऽपि तत्र अनेके घटाः सन्ति खलु. घटत्वमिति जातिः अस्ति, तस्याम् अनेके घटाः सन्ति. तत्र कोऽपि तत्र तद् नास्ति चेत् तत्र घटाभावः कीदृशः? एकस्य घटे एकः घट किमपि कोऽपि घटः भवतु, तस्य आनयनेन घटाभावः गच्छति. तादृश अभावः अस्ति सामान्य अथवा साधारण अभावः. इदानीं तत्र सामान्यस्य
सामान्यस्य अभावः इति यथा श्रुते तु अयं जातिर् अभावः स्यात्.
इदानीं तत्र सामान्य अभावः इति यदि शृण्मः तत्र किं भवति?
अस्माकम् अवगमनम् अस्ति जातेः अभावः इति.
हा, घटत्व अभावः इति चिन्तयामः. घटत्व अभावः भिन्नम् अस्ति, घटाभावः भिन्नम् अस्ति. हा, तत्र इति वक्तुं तत्र सामान्यम् इति अभावः इति तत्र तस्य पदस्य उपयोगः कृतः अत्र, किन्तु तादृश अर्थः नास्ति इति सः वक्तुम् इच्छति. अस्तु, अतः तत्र कुतः
कुतः सामान्यं नाम प्रागुक्तरीत्या जातिः. सामान्यम् इत्युक्ते जातिः इति, तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इत्यर्थः स्यात्.
हा, अतः तत्र घटसामान्य अभावः इति यदि वदामः तत्र किं भवति? वयं किं चिन्तयामः? घटत्व इति तस्य अभावः इति चिन्तयामः इति तावत् पर्यन्तं खलु. अस्तु, समीचीनं भगिनि, धन्यवादः.
धन्यवादः.
धन्यवादः भगिनि. अस्तु, अग्रे तत्र शीला भगिनी अग्रे किञ्चित् वक्तुम् इच्छति वा तत्र न अयं विवक्षितः इति?
अहं विवरण करोतु न शक्नोमि महोदय.
अस्तु अस्तु भगिनि, अस्तु, चिन्ता मास्तु. अस्तु अस्तु अस्तु, भवानी भगिनी अग्रे किञ्चित् विवृणोति वा? अस्तु, तर्हि तत्र शोभा भगिनी पुनः भवती एव तत्र किञ्चित् विवृणोति वा?
न, क्षमता महोदय, अधुना न कर्तुं शक्नोमि.
अस्तु भगिनि, अस्तु, तर्हि कः कर्तुम् इच्छति तत्र? अस्तु भगिनि, करोतु भगिनि.
पूर्णतया न अवगच्छामि, परन्तु प्रयत्नं करोमि तत्र. न अयं विवक्षितः, किन्तु सर्वस्य घटस्य अभावः घटसामान्यं यत् घटत्वं तद्वान् सर्वोऽपि घटः तस्या भावोः अयं तस्याः भावः अयं कः अर्थः?
तस्य अभावः अयं,
तस्य अभावः अयं. अस्तु, अत्र यत् यत् तस्याः अभावः यदि अर्थः स्यात् तदा घटसामान्यभाव घटसामान्याभावः इत्यस्य घटस्य यत् सामान्यं तत्र घटत्वं तस्य अभावः इति भवति न तु घटस्य तत् विवक्षितं नास्ति न अयं विवक्षितः परन्तु परन्तु सर्वस्य घटस्य अभावः इति तत्र चिन्तनीयामः घटसामान्यं यत् घटत्वं तद्वान् सर्वोऽपि घटः तत्र केवलम् एकः घटः तत्र नास्ति इति न चिन्तनीयं सर्वे अपि घटः कः अपि घटः तत्र तत्र नास्ति घटसामान्यस्य तत्र घटत्वम् एव नास्ति चेत् तत्र कोऽपि घटः अपि भवितुं न अर्हति तस्य 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 अभावः अयं
तत्र किञ्चित् तत्र घटत्वम् इति तस्य अभावः इति न विवक्षितः खलु घटत्वं घटत्वम् इति तस्य अभावः न विवक्षितः केवलं घट इति घटाभावः एव विवक्षितः किन्तु तत्र केवलम् एकस्य घटस्य अभावः इति न सामान्य तत्र साधारणघटाभावः नाम तत्र यः कोऽपि घटः कोऽपि घटः अत्र नास्ति इति अर्थः खलु अतः तत्र तत्र घटसामान्यं यत् घटत्वं तद्वान् तद्वान् नाम किम् अस्ति तत्र अतः तत्र तद्वान् नाम तत्र यत् घटत्वं घटसामान्यं यत् घटत्वं तद्वान् नाम तद् नाम घटत्वं घटत्वं वान् इत्युक्ते तत्र किं भवति धनवान् धनवान् नाम यस्य अस्व यस्मिन् वा खलु तत्र सः धनवान् तत्र यस्मिन् घटत्वं वर्तते सः सः कः सः घटः खलु घटत्वं तस्मिन् वर्तते नाम सः घटः एव अतः तत्र तद्वा नाम घटत्ववान् इति तत्र सर्वेपि घटाः घटः सर्वेपि घटः घटत्ववान् भवन्ति तस्य तस्य तादृशघटस्य अभावः अयम् अस्ति तावदेव तत्र यदि तत्र अस्मिन् परिच्छेदे यदि तत्र सामान्यम् इति स्थाने साधारणघटाभावः इति आसीत् चेत् एतादृशविवरणस्य तत्र आवश्यकता प्रायशः नास् आसीत् किन्तु सामान्यम् इति उक्तम् अतः तत्र क्लेशः भवति इति कृत्वा तत्र विवरणं दत्तमस्ति नाम घटत्व इति जातिः अस्ति तस्याः अभावः नास्ति किन्तु केवलं घट इति पदार्थः अस्ति तस्य अभावः यः कोऽपि घटः भवतु तस्य अभावः अस्ति अत्र इति वर्णनं अतः सर्वोऽपि घटः
तत्र कः अपि घटः नास्ति सर्वोऽपि घटः अस्य विरोधी
हा नाम साधारण अथवा सामान्य अभावस्य अभावः कीदृशः नाम यः कोऽपि घटः भवतु तस्य आनयनेन एषः अभावः अपगच्छति केवलं तत्र अस्तु तत्र बृहान् घटः अस्ति तस्य आनयनेन एव एषः अभावः गच्छति इति न यः कोऽपि घटः भवतु तस्य आनयनेन एषः अभावः अपगच्छति
यदा वयं वदामः सामान्य घटाभावः इति अस्ति सामान्यघटाभावः अस्ति इति वदामः चेत् सर्वेपि घटः अस्य विरोधी भवति तत्र केनापि घटेन तस्य अभावस्य निरूपणं भवति अपसारणं भवति
तत्र नाम तत्र अभावः अपसरति
अभावः गच्छति तत्र तस्य नाम सामान्यभाव अभाववर्णनं
हा इति एव तावदेव अस्ति तत्र नाम सामान्य इति स्थाने साधारण इति चिन्तयामश्चेत् तत्र किमपि कोऽपि क्लेशः
समीचीनं
धन्यवादः भगिनी अस्तु अग्रे तत्र सावित्री भगिनी अग्रे पठितुम् इच्छति वा सावित्री भगिनी
आमां
इदानीं विशेष अभावः
कुत्रचित् कारणात् इति तत्
न न अधोभागे तत्र द्वितीया अभावः
विशेषाभावः
क्षम्यतां
उदाहरणरूपेण अस्ति इति कुत्र अस्ति तदेव एतावता वयं यत् दृष्टवन्तः तस्य विषये प्रायः इतोपि उदाहरणं दर्शयति कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः सः मत्स्यः प्रप्स्यति लिखति च तत्र भूतिं प्राप्नोति इति वा लिखति च कुतः सः जलम् अपेक्षते अर्थात् सः जलाभावं पश्यति जलस्य अभावं पश्यति अनुभवति कीदृशजलाभावं जलसामान्य अभावम् पर्याप्तं वा अस्तु कुतः किमपि जलं मत्स्येन अनुभूयमानं जलाभावं वारयितुं प्रभवति कश्चित् तस्मै नदीजलं दद्यात् कश्चित् तडागजलं दद्यात् कश्चित् कूपजलमपि दद्यात् यत्किञ्चित् जलं तदभावस्य विरोधः भरादरूपा प्रतियोगिता नदीजले तडागजले कूपजले अन्यस्मिन् सर्वस्मिन्नपि जले वर्तते अतः अयं जलसामान्याभावः वक्ष्यमाना अभावयोः एवंविध प्रतियोगिता न भवति इति विशेषः
हा तावत्
पर्यन्तं किञ्चित् विवरणति वा आम् तदेव उपरि वयम् एतावता सामान्य अभावशेषु वयं पठन्तः स्मः तत्र कोऽपि स्पष्टं मत्स्यस्य जलस्य विषये अत्र उदाहरणरूपेण निरूपितवन्तः सन्ति कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः कथमपि तत्र कदाचित् मत्स्यस्य जलस्य वियोगः अभवत् जलात् मत्स्यः बहिः आनीतः तदा मत्स्यस्य स्थितिः भूतः प्राप्तः मत्स्यः अतः सः प्रस्येति लिखति च किमर्थं कुतः किमर्थम् इत्युक्ते सः जलम् अपेक्षते ओके तस्य जलस्य आवश्यकता अस्ति जल अभावे मत्स्यः न जीवति इति कारणात् अर्थात् सः जलाभावं पश्यति अनुभवति किमर्थं तस्य अद्वितिः वा लुण्ठनं वा अभवत् इत्युक्ते सः जलाभावम् अनुभवन् अस्ति कीदृशजलाभावं तत्र कीदृशमेव जलम् आवश्यकमिति अस्ति वा इति प्रश्नः जलसामान्य अभावम् इत्युक्ते तत्र एवं प्रायः अत्र जलत्वं वयं स्वीकर्तुं शक्नुमः इति अहम् अवगच्छामि तत्र किमपि तत्र जलं तस्य आवश्यकता तत्र जलं तस्य आवश्यकम् अस्ति किमर्थं कुतः इत्युक्ते किमपि जलं मत्स्येन अनुभूयमानं जलाभावं वारयितुं प्रभवति यदि यदा जलस्य वियोगः यस्मात् जलात् आगतः तदाहलमिति न किमपि जलं तस्य अभावं निवारयितुं तत्र शक्नोति कश्चित् तस्मै नदीजलं दद्यात् कोऽपि तस्मै किमपि तत्र नदीजलम् आनीय दत्तवान् कश्चित् तडागजलं दद्यात् कश्चित् कूपजलमपि दद्यात् यत्किञ्चित् जलं तद् अभावस्य विरोधे मत्स्यपर्यन्तं यदि चिन्तयामः
तर्हि यत्किमपि जलं भवति तस्य जलाभावं भारं करोति इत्युक्ते अत्र जल अभावस्य विरोधी अस्ति भरोधरूपा प्रतियोगिता तर्हि अत्र प्रतियोगिता तत्र इत्युक्ते वयम् अभावे प्रतियोगिता इति वयं पूर्वं दृष्टवन्तः अतः जनारे प्रतियोगिता इति वयं दृष्टवन्तः अतः अत्र नदीजले तडागजले कूपजले अन्यस्मिन् सर्वस्मिन् अपि जले प्रतियोगिता वर्तते अतः अयं जलसामान्य अभावः वक्ष्यमाण अभावयोः प्रारम्भिः प्रतियोगिता न भवति इति अत्र विशेषः प्रायः अत्र विशेषस्य परिचयं प्रायः करोति विशेष अभावस्य परिचयम् एवं
वक्ष्यमाण अभावयोः इति विवचने अस्ति कृत्वा अग्रे विशेषण विशेष अभावद्वयम् अग्रे वर्तते खलु वक्ष्यमाण अभावयोः इति अस्ति खलु अतः समीचीनं भगिनि अतः तत्र वार्ता का तत्र साधारणजलाभावः नाम यत् तत्र मत्स्यः तत्र अनुभवति तत् सामान्यजलाभावं यत्किमपि जलं भवतु तेन तस्य आनयनेन तत्र मत्स्यस्य जलाभावः अपगच्छति अतः अभावे अनियोगिता अस्ति अपि तस्य जले प्रतियोगिता अस्ति प्रतियोगिता कुत्र कुत्र वर्तते प्रतियोगिता तत्र यत्किमपि कूपजले वर्तते तडागजले वर्तते नदीजले सर्वस्मिन् जले अपि प्रतियोगिता वर्तते अतः एतस्य अभावस्य नाम अस्ति तत्र सामान्य अभावः इति समीचीनं भगिनि अस्तु उत्तमं विमला भगिनी प्रश्नः अस्ति वा
आं महोदय अन्तिमवाक्यस्य अर्थं न जानामि वक्ष्यमाण अभावयोः एवंविधप्रतियोगिता न भवति इति विशेष
अग्रे 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 वयं जलाभावस्य एव अन्यविध तत्र जलाभावस्य वर्णनम् अग्रे अग्रे वदामः वक्ष्यमाणः अस्ति तत्र प्रतियोगिता सर्वेषु तत्र सर्वत्र भवति इति नास्ति सर्वत्र न भवति अतः यः यस्य विषये वयं वदामः सः सामान्य अभावः नास्ति विशेष अभावः इति नामकरणं तस्य भवति
अवगतं महोदय धन्यवादः
हा अस्तु समीचीनम्
क्षम्यतां महोदय इदानीम् एकः वाक्यमस्ति खलु अतः अयं जलसामान्य अभावः इति उक्तं खलु अत्र अयम् इति कः अस्ति
पुनः भगिनि पुनः प्रश्नः
अतः अयं जलसामान्य अभावः इति वाक्ये अयम् इति कस्य कृते अस्ति अयम् इति जलम् अस्ति वा
मत्स्ये यः अभावः मत्स्ये अस्ति सः सामान्य जल अभावः अयं नाम सः इति अर्थः खलु अयं
नाम
सः कः नाम यः जलाभावः मत्स्ये अस्ति
जलाभावः सः
इति जलाभावः इति तत्र पुल्लिङ्गे अस्ति सः तत्र सः मत्स्ये यः जलाभावः अस्ति सः सामान्य जलाभावः नाम किमर्थं सामान्यजलाभावः यतोहि सः
जले सामान्यत्वमस्ति
यत्किमपि यत्किमपि जलम् आनयतु एषः अभावः अपगच्छति अतः सामान्यजलाभावः इति वदामः
यत्किमपि जलं भवतु तत्र जलत्वमस्ति तत् सामान्यभावः अस्ति अतः
न न जलत्वम् इति विषयः मास्तु एव साधारणम् इति चिन्तयतु
अस्तु
केवलं साधारणजलाभावः इति चिन्तयतु साधारणजलाभावः नाम किं यत्किमपि जलम् आनयतु एषः अभावः अपगच्छति
तत्र न भवति. अग्रे अग्रिमे वर्गे वयं पश्यामः तत्र विशेषजलाभावः भवति, विशेषविशेषजलाभावः भवति, यत्र किमपि जलम् अस्ति ते तस्य आनयनेन सः अभावः अपगच्छति इति न भवति. तत्र अत्र साधारण अथवा सामान्यजलाभावस्य प्रतियोगिता, तत्र यत्किमपि जलमस्ति तत्र कूपीजलं वा नदीजलं वा सर्वत्र प्रतियोगिता वर्तते. अतः साधारण सामान्यम्, अत्र सामान्यमिति तत्र जलत्वम् इति विषयः नास्ति, तत्र क्लेशकरम् अस्ति तत्र सामान्यमिति पदस्य उपयोगः.
अस्तु महोदय,
समीचीनं भगिनि. अस्तु, अन्य कोऽपि प्रश्नः?
पूर्वे खडं नास्ति इति अभावः आसीत्, तदपि सामान्य अभावः अस्ति वा?
सामान्य अभावः एव, सत्यं भगिनि.
किन्तु नगुलः सर्पः सामान्यं नास्ति वा?
किं भगिनि?
नकुलः सर्पः
तत्तद् अभावः इति नास्ति तत्र, तत्र नकुलः सर्पः तयोः मध्ये विरोधः अस्ति.
विरोधः
अस्ति. इदानीं घटः अपि घटाभावः तयोः मध्ये अपि विरोधः अस्ति, यतोहि घटः अस्ति चेत् घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति, सर्पः अस्ति चेत् नकुलः नास्ति, नकुलः अस्ति चेत् सर्पः नास्ति इति यथा भवति, तथैव घटः घटाभावः तयोः मध्ये अपि विरोधः अस्ति, किन्तु सः विरोधः भिन्नः अस्ति.
सर्पविरोधः
तत्र वद्यघातक
एवं विरोधः
समानविरोधः नास्ति, समानविरोधः भिन्नविरोधः अस्ति तत्र. इदानीं तत्र एतावत् वयं किं कृतवन्तः, साधारण अथवा सामान्य अभावस्य वर्णनम्, अभावः कः अपि सामान्य अथवा साधारण अभावः कः इति तस्मिन् विषये परिचयं प्राप्तवन्तः एतावत्. अग्रिमे वर्गे तत्र विशेष अभावः नाम किम् इति पश्यामः. अस्तु तर्हि, तत्र एतावत्
अनियोगिता इति केवलम् अभावे एव भवति वा, अन्यत्र कुत्रापि?
सत्यं भगिनि, अनियोगिता इति अभावे यः विरोधः वर्तते तस्य नाम अस्ति अनियोगिता. तस्य अनियोगिता कीदृशी अस्ति चेत् ता नाम निरूपिता अस्ति. केन निरूपिता? प्रतियोगिता या वर्तते, या प्रतियोगिता वर्तते नाम विरोधः यः वर्तते घटे, तेन निरूपिता अथवा तया निरूपिता अस्ति अनियोगिता. अनियोगिता सर्वदा अभावे वर्तते, प्रतियोगिता पदार्थे वर्तते. जले प्रतियोगिता वर्तते, जलाभाव जलाभावं
प्रति अनियोगिता,
अभावे अनियोगिता. यतोहि तत्र विरोधः इति वदामः, तत्र कुत्र वर्तते इति पुनः वर्णनीयं भवति, तद् मास्तु इति कृत्वा पदार्थे यः विरोधः सः प्रतियोगिता, अभावे यः विरोधः सः अनियोगिता इति नामकरणम् इति.
एकवारं खडस्य अभावः सामान्य अभावः, नकुलस्य सर्पस्य अभावः विरोध अभावः.
सर्पः नकुल तत्र अभावः एव वार्ता नास्ति, तत्र तद् भिन्नमस्ति, केवलं विरोधः एव अस्ति तत्र.
विरोधः
अभावः इति भिन्नः विषयः, नकुलसर्पयोः विरोधः भिन्नविषयः, अतः तत्र अभावः इति भिन्नः. भगिनि समीचीनम्.
अस्तु अस्तु, जलस्य अभावः खडस्य अभावः सामान्य अभावः,
तत्र केवलं घटाभावः इति वदामश्चेत् सामान्य अभावः. अग्रे पश्यामः विशेष अभावः नाम किम् इति अग्रिमे वर्गे पश्यामः. अस्तु अस्तु, तर्हि तत्र विरमामः. यदि प्रश्नाः सन्ति चेत् अहं तिष्ठामि तत्र, किन्तु तत्र ध्वनिमुद्रणम् इदानीं स्थगयामि.